एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। निवेश समितेः उपवेशेन बूढी गण्डकी प्रवृत्तिनाम् जलविद्युत परियोजनानाम् निवेशनम् स्वीकृतमस्ति। प्रधानमन्त्रिणः केपी शर्मा ओलिनः अध्यक्षतायाम् ह्यः सिंहप्रासादे सम्पन्नेन समितेः उपवेशेन एकचत्वारिंशदधिकत्रिशतम् मेगावाट मित क्षमतायाः बूढी गण्डकी जलविद्युत परियोजनायाः कृते सप्ततिम् अब्जानि रूप्यकाणि षडुत्तरैकशत मेगावट मित क्षमतायाः जगदुल्ला अर्धजलाशयुक्त जलविद्युत परियोजनायाः कृते त्रयोविंशति अब्जानि एकोनषष्टिम् कोटिश्च रूप्यकाणि दशोत्तर द्विशत मेगावट मित क्षमतायाः चैनपुर सेति परियोजनायाः कृते सप्तचत्वारिंशतम् अब्जानि चतुष्पञ्चाशतम् कोटिश्च रूप्यकाणि स्वीकर्तुम् निर्णीतमस्ति। एवमेव उपवेशेन सप्तविंशत्यधिक त्रिशत मेगावट मित क्षमतायाः उपरि मर्स्याङ्गदी जलविद्युदायोजनायाः सम्राट वज्र चूर्णोद्योगस्य च समयावधिः वर्धितोऽस्ति। उपवेशे प्रधानमन्त्री ओली सम्बद्धैः निकायैः सह समन्वयेन कार्यम् विधाय देशे निवेशनस्य वातावरणम् स्रष्टुम् समृद्धेः यात्रायाम् जागरूकतया कार्यम् कर्तुम् च अन्वरुणत। उपवेशे समितेः प्रमुख कार्यकारीयाधिकृतः सुशील ग्यवाली गतास्मिन् मासस्य द्वाविंशे दिवसे विहितस्य निर्णयस्य आधारेण समितेः रणनीतिक्याः व्यावसायिक्याश्च योजनायाः प्रारूपम् निर्माय सम्बद्धैः पक्षैः विमर्श विद्यमानोऽस्तीति असूचयत्। प्रधानमन्त्रिणः केपी शर्मा ओलिनः समक्षम् राष्ट्रिय सूचनायोगेन गतार्थिक वर्षस्य वार्षिकम् प्रतिवेदनम् प्रस्तुतमस्ति। ह्यः बालवाटारवर्तिनी प्रधानमन्त्री निवासे आयोगस्य प्रमुख सूचनायुक्तः महेन्द्र मान गुरूङ प्रतिवेदनमिदम् प्रधानमन्त्रिणः ओलिनः समक्षम् प्रास्तौत। तदवसरे आयोगस्य वर्तमान नेतृत्वस्य पञ्चवर्षात्मके कार्यकाले निर्णीतानाम् महत्वपूर्णानाम् आदेशानाम् संग्रहम् प्रधानमन्त्री ओली सार्वजनीकृतवान्। प्रतिवेदनम् गृह्णन् प्रधानमन्त्री ओली सूचनायाः अधिकारम् वास्तविकस्य अधिकारस्य रूपेण स्थापयित्वा सम्बद्धेभ्यः पक्षेभ्यः आवश्यक सूचना प्रदानाय सर्वकारस्य आयोगस्य च मध्ये सहकार्याय बलम् प्रादात्। तदवसरे प्रधानमन्त्री ओली लोकतन्त्रस्य पक्षे एकीभूय अराजकतायाः निरुत्साह बलम् प्रादात्। तदवसरे सूचनायोगस्य प्रमुखायुक्तः गुरूङ स्वकीय पञ्चवर्षीय कार्यकाले पञ्चसहस्राणि एकशतम् द्व्यशीतिश्चेति संख्यायाम् पुनरावेदनेषु प्राप्तेषु प्रतिशतम् पञ्चनवतिः पुनरावेदनानि निर्णीय पूर्णताम् नीतानि सन्तीति असूचयत्। नेपाल विज्ञान प्रविधि प्रतिष्ठानस्य प्राज्ञ सभया विभिन्नासु द्वादश विधासु प्रतिभायुतान् वैज्ञानिकान् प्राविधिकांश्च पुरस्कर्तुम् निर्णीतमस्ति। बालवाटारवर्तिनी प्रधानमन्त्री निवासे प्रधानमन्त्रिणः प्रतिष्ठानस्य कुलपतेश्च केपी शर्मा ओलिनः अध्यक्षतायाम् ह्य उपविष्टेन उपवेशेन नेपाल विज्ञान प्रविधि प्रतिष्ठानस्य प्राज्ञस्य संयोजकत्वे संघटितायाः प्रचयन मूल्यांकन समितेः परामर्शस्य अनुसारेण पुरस्कार प्रदानाय निर्णीतमस्ति। एव भविष्यति आयोग क्षमाणे नेपाल विज्ञान प्रविधि प्रतिष्ठानस्य वार्षिकोत्सवे पुरस्कर्तुम् निर्णीतेभ्यो जनेभ्य इमे पुरस्काराः प्रदास्यन्ते। तदवसरे प्रधानमन्त्री ओली यथासमयम् गुणस्तरीयताम् संस्थाप्य कार्यकरणस्य प्रणालीम् स्थापयितुम् प्रतिष्ठानस्य पदाधिकारिणः अन्वरुणत। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्री प्रतिष्ठानस्य सहकुलपतिश्च विद्या भट्टराई सार्वजनिक क्रयणाधिनियमानुसारेण क्रयण सम्बद्धाम् व्यवस्थाम् विधातुम् निरदिशत। प्रतिष्ठानस्य उपकुलपतिः प्राध्यापकः डाक्टर दिलीप सुब्बा आवश्यक गृह कार्यानन्तरम् नियमावल्याः संशोधनार्थम् प्रस्तावः आनेष्यते इति अवोचत्। सर्वकारेण इक्षुमूल्यम् आसन्न विंशत्या रूप्यकैर्वर्धितमस्ति। मन्त्रिपरिषद ह्यस्तनोपवेशेन इक्षुद्योगैः कृषकेभ्यः प्रदीयमानस्य प्रति क्विंटल मितस्य इक्षोः मूल्यम् विंशत्या रूप्यकैः वर्धयितुम् निर्णीतम् वर्तते। अतःपरम् कृषकैः प्रति क्विंटल परिमितस्य इक्षोः मूल्यम् पञ्चाशीत्यधिक पञ्चशतम् रूप्यकाणि प्राप्स्यन्ते। सर्वकारेण इच्छुक कृषकेभ्य अनुदान सहयोगस्य रूपेण प्रदीयमानस्य वित्तस्य विषये निर्णयं कर्तुम् इदानीम् अवशिष्टमस्ति। कृषि पशुपक्षी विकास मन्त्रिणा रामनाथ अधिकारिण इच्छुक कृषकेभ्य अनुदान सहयोगस्य रूपेण प्रदीयमानं वित्तं वर्धनीयमिति प्रस्तावः विहितो वर्तते। देशस्य आर्थिकावस्थामपि विचार्य अनुदान सहयोगस्य रूपेण प्रदीयमानस्य अनुदान सहयोगस्य वित्तस्य विषयं पश्चात् निर्धारयितुं मन्त्रिपरिषदा निश्चितमस्ति। सर्वकारेण एतत्पूर्वम् इक्षु कृषकेभ्य प्रति क्विंटल परिमितस्य इक्षोः मूल्ये 70 रूप्यकाणि अनुदानस्वरूपेण प्रदत्तानि आसन्। परराष्ट्रमन्त्री डॉ आरजु राणा देववा चीनदेशस्य छन्दु नगरे सम्प्राप्तास्ति। चीनदेशस्य विदेशमन्त्रिणः वांग यी इत्यस्य मैत्रीपूर्णायां निमन्त्रणायां औपचारिकाय भ्रमणाय मन्त्री डॉ राणा ह्य नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विधाय चीनदेशं प्रति प्रस्थिता आसीत्। मन्त्री डॉ राणा इत्यभिधायः हिच्छेन्दुनगरे चीनदेशस्य विदेशमन्त्रालयस्य सिचुआन प्रान्तस्य उपनिर्देशकेन ली हुछियांग इत्यनेन चीनदेशस्य कृते नेपाली राजदूतेन कृष्णप्रसाद ओलिना च स्वागताभिधानम् अभिवादनम् अर्पितम् आसीत्। भ्रमणस्य अवसरे मन्त्रिणा डॉ राणा इत्यनया चीनदेशस्य विदेश मन्त्रिणा वांग यी इत्यनेन सह मेलवार्ता करिष्यति। मेलवार्ता अद्य छेन्दुनगरे भविष्यति। मन्त्री डॉ राणा प्रधानमन्त्रिणा केपी शर्मा ओलिनः आसन्न चीनदेशस्य भ्रमणस्य पूर्व कार्याय तत्र गता अस्ति। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः निगदति सीमितेन स्रोत साधनेन अधिकतमाय लाभाय प्रयासो विधेय। स्वास्थ्य मन्त्रालयस्य आयोजनायां संचालिते राष्ट्रिय संयुक्त वार्षिक समीक्षोपवेशे स्वास्थ्य मन्त्री पौडेलः अपर्याप्तस्य स्रोतसः कारणेन ईप्सिताः कतिपय कार्यक्रमाः संचालयितुं न शक्ताः सन्तीति अगदत्। मन्त्री पौडेलः राज्येन विनियोजितस्य वित्तस्य सीम्नि कथम् अधिकाधिकं सेवाः प्रदातुं शक्यन्ते इत्यस्मिन् विषये यत्नो विधेय इति प्रावोचत। अस्यैव मार्गशीर्ष मासस्य 16 दिवसे सम्पत्स्यमानस्य उपनिर्वाचनस्य प्रचार प्रसारयोः निषेधावधिः गत रात्रौ 12 प्रारब्धोऽस्तीति निर्वाचनायोगेन ज्ञापितं वर्तते। स्थानीय स्तरस्य उपनिर्वाचनं स्वच्छं स्वतन्त्रं निष्पक्षं विश्वसनीयं विधाय भयरहिते वातावरणे सम्पादयितुं च निर्वाचन प्रचार संहितायाः निर्वाचनाचार संहितायाः अनुसारेण मतदानस्य दिनात् 48 घण्टाभ्यः पूर्वतः मतगणनायाः अवसम्पादनं यावत् राजनीतिकदलानां प्रत्याशिनां च पक्षे विपक्षे वा कथं विदोपि प्रचारः प्रसारः कर्तुं न शक्यते इति आयोगेन ज्ञापितमस्ति। राष्ट्रिय स्वतन्त्र दलस्य सभापति रवि लामिछाने सहकारी संस्थानां वित्त वञ्चन प्रकरणे प्रकथन ग्रहणाय काष्ठमण्डपम् आनीतोऽस्ति।